ಮಂತ್ರಜಪಃ ಶ್ರೀ ಮಹಾಗಣಪತಿ ಮಂತ್ರ ಓಂ ಅಸ್ಯ ಶ್ರೀ ಮಹಾಗಣಪತಿ ಮಹಾಮಂತ್ರಸ್ಯ ಗಣಕರ್ಷಿಃ ಗಾಯತ್ರೀ ಛಂದಃ ಮಹಾಗಣಪತಿರ್ದೇವತಾ ಗ್ಲಾಂ ಬೀಜಂ ಗ್ಲೀಂ ಶಕ್ತಿಃ ಗ್ಲೂಂ ಕೀಲಕಂ ಶ್ರೀ ಮಹಾಗಣಪತಿ ಪ್ರಸಾದ ಸಿದ್ಧ್ಯರ್ಥೇ ಜಪೇ ವಿನಿಯೋಗಃ ಧ್ಯಾನಂ ಬೀಜಾಪೂರಗದೇಷು ಕಾರ್ಮುಖರುಜ ಚಕ್ರಾಬ್ಜಪಾಶೋತ್ಪಲ ವ್ರೀಹ್ಯಗ್ರಸ್ವಮಿಷಾನರತ್ನಕಲಶ ಪ್ರೋದ್ಯತ್ಕರಾಂಭೋರುಗಃ ಧ್ಯೇಯೋ ವಲ್ಲಭಯಾ ಸಪದ್ಮಕರಯಾ ಸೃಷ್ಟೋಜ್ವಲದ್ಭೂಷಯಾ ವಿಶ್ವೋತ್ಪತ್ತಿ ವಿಪತ್ತಿ ಸಂಸ್ಥಿತಿಕರೋ ವಿಘ್ನೇಶ ಇಷ್ಟಾರ್ಥದಃ ಮೂಲಮಂತ್ರಃ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ ಮೇವ ಸಮಾನಯಸ್ವಾಹಾ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ ಮೇವ ಸಮಾನಯಸ್ವಾಹಾ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ ಮೇವ ಸಮಾನಯಸ್ವಾಹಾ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ ಮೇವ ಸಮಾನಯಸ್ವಾಹಾ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ ಮೇವ ಸಮಾನಯಸ್ವಾಹಾ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ ಮೇವ ಸಮಾನಯಸ್ವಾಹಾ ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಗ್ಲೌಂ ಗಂ ಗಣಪತಯೇ ವರವರದ ಸರ್ವಜನಂ मेव समानयस्वा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मेव समानयस्वा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मेव समानयस्वा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मेव समानयस्वा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मेव समानयस्वा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनम् मेव समानयस्वा
श्री सुब्रह्मण्य पञ्चदशाक्षरी मन्त्रः ॐ अस्य श्री सुब्रह्मण्य पञ्चदशाक्षरी महामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः श्रीसुब्रह्मण्यो देवता ॐ श्रीं ह्रीं क्लीं इति बीजम् शरवणभव इति शक्तिः ऐं ईं नं लं सौः इति कीलकम् श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ध्यानम् सिन्दूरारुणमिन्दुपद्मजैभिः षड्भिर्मुखैर्भासितम् कारुण्यामृतपूरसुन्दरकरैः भान्तम् द्विषल्लोचनैः बिभ्राणम् वरमब्जयुग्ममभयम् शक्तिद्वयम् कार्मुकम् खड्गम् चर्म पृषत्कमङ्गुशगदे वल्लीसमीक्षे हृदि मूलमन्त्रः ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव ॐ श्रीं ह्रीं क्लीं ऐं ईं नं
लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव। ॐ श्रीं ह्रीं क्लीं ऐं ईं नं लं सौः शरवणभव।
सूर्यनमस्कारमन्त्रः। ॐ अस्य श्रीसूर्यनमस्कारमहामन्त्रस्य अगस्त्यो भगवान् ऋषिः अनुष्टुप् छन्दः। सूर्यनारायणो देवता ह्रां बीजम् ह्रीं शक्तिः ह्रूं कीलकम्। श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे नमस्कारे विनियोगः। ध्यानम्। सूर्यं सुन्दरलोकनाथममृतम् वेदान्तसारं शिवम् ज्ञानं ब्रह्ममयं सुरेशममलम् लोकैकचित्तं स्वयम्
इन्द्रादित्यनराधिपं सुरगुरुं त्रैलोक्यचूडामणिं ब्रह्मा विष्णुशिवस्वरूपहृदयम् वन्दे सदा भास्करम्। नमस्कारः श्रीमहागणपतये नमः। मित्राय नमः। रवये नमः। सूर्याय नमः। भानवे नमः। खगाय नमः। पूष्णे नमः। हिरण्यगर्भाय नमः। मरीचये नमः। आदित्याय नमः। सवित्रे नमः। अर्काय नमः। भास्कराय नमः। मित्ररविभ्यां नमः। सूर्यभानुभ्यां नमः। खगभूषभ्यां नमः। हिरण्यगर्भमरीचिभ्यां नमः। आदित्यसवितृभ्यां नमः। अर्कभास्कराभ्यां नमः। मित्ररविसूर्यभानुभ्यो नमः। खगपूषहिरण्यगर्भमरीचिभ्यो नमः। आदित्यसवितृर्कभास्करेभ्यो नमः। मित्ररविसूर्यभानुखगपूषभ्यो नमः
हिरण्यगर्भमरीच्यादित्यसवितृकभास्करेभ्यो नमः
मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवितृकभास्करेभ्यो
नमः
आदित्याय
नमः
सोमाय
नमः
अंगारकाय
नमः
बुधाय
नमः
बृहस्पतये
नमः
शुक्राय
नमः
शनैश्चराय
नमः
राहवे
नमः
केतवे
नमः
श्रीसांब सदाशिवाय
नमः
श्रीगुरुभ्यो
नमः
श्रीमहागणपतये
नमः
मित्राय
नमः
रवये
नमः
सूर्याय
नमः
भानवे
नमः
खगाय
नमः
पूष्णे
नमः
हिरण्यगर्भाय
नमः
मरीचये
नमः
आदित्याय
नमः
सवित्रे
नमः
अर्काय
नमः
भास्कराय
नमः
मित्ररविभ्यां
नमः
सूर्यभानुभ्यां
नमः
ककभूषभ्यां
नमः
हिरण्यगर्भमरीचिभ्यां
नमः
आदित्यसवितृभ्यां
नमः
अर्कभास्कराभ्यां
नमः
मित्ररविसूर्यभानुभ्यो
नमः
खगपूषहिरण्यगर्भमरीचिभ्यो
नमः
आदित्यसवितृकभास्करेभ्यो
नमः
मित्ररविसूर्यभानुखगपूषभ्यो
नमः
हिरण्यगर्भमरीच्यादित्यसवितृकभास्करेभ्यो
नमः
मित्ररविसूर्यभानुखगपूषहिरण्यगर्भ
मरीच्यादित्यसवितृकभास्करेभ्यो
नमः
आदित्याय
नमः
सोमाय
नमः
अंगारकाय
नमः
बुधाय
नमः
बृहस्पतये
नमः
शुक्राय
नमः
शनैश्चराय
नमः
राहवे
नमः
केतवे
नमः
श्रीसांब सदाशिवाय
नमः
श्रीगुरुभ्यो
नमः
श्रीमहागणपतये
नमः
मित्राय
नमः
रवये
नमः
सूर्याय
नमः
भानवे
नमः
खगाय
नमः
पूष्णे
नमः
हिरण्यगर्भाय
नमः
मरीचये
नमः
आदित्याय
नमः
सवित्रे
नमः
अर्काय
नमः
भास्कराय
नमः
मित्ररविभ्यां
नमः
सूर्यभानुभ्यां
नमः
ककभूषभ्यां
नमः
हिरण्यगर्भमरीचिभ्यां
नमः
आदित्यसवितृभ्यां
नमः
अर्कभास्कराभ्यां
नमः
मित्ररविसूर्यभानुभ्यो
नमः
खगपूषहिरण्यगर्भमरीचिभ्यो
नमः
आदित्यसवितृकभास्करेभ्यो
नमः
मित्ररविसूर्यभानुखगभूषभ्यो नमः। हिरण्यगर्भमरीच्यादित्यसवितृकभास्करेभ्यो नमः। मित्ररविसूर्यभानुखगभूषहिरण्यगर्भमरीच्यादित्यसवितृकभास्करेभ्यो नमः। आदित्याय नमः, सोमाय नमः, अंगारकाय नमः, बुधाय नमः, बृहस्पतये नमः, शुक्राय नमः, शनैश्चराय नमः, राहवे नमः, केतवे नमः, श्रीसांब सदाशिवाय नमः, श्रीगुरुभ्यो नमः। श्रीनारायण अष्टाक्षरी मन्त्रः ॐ। अस्य श्रीनारायण अष्टाक्षरी महामन्त्रस्य साध्यनारायण ऋषिः देवी गायत्री छन्दः श्रीमन्नारायणो देवता। ॐ बीजम् नारायणाय शक्तिः नमः कीलकम् श्रीमन्नारायणप्रीत्यर्थे जपे विनियोगः ध्यानम् अर्कौगावं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराजत् केयूरं कौस्तुभाबाशबलरुचिरहारं सतीताम्बरं च नानारत्नांशु भिन्नाभरणशतयुजं श्रीधराश्रिष्टपार्श्वम् वन्दे दोसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् मूलमन्त्रः ॐ नमो नारायणाय 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 हनुमन् मन्त्रः ॐ। अस्य श्री हनुमन् मन्त्रस्य श्रीरामचन्द्रो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीहनुमान् देवता ह्रीं बीजम् श्रीं शक्तिः किल किल भूभूकारिणे इति कीलकम् सर्वारिष्टनिवारणार्थे जपे विनियोगः ध्यानम् वन्दे विद्वज्ज्वलनविलसद्ब्रह्मसूत्रोज्ज्वलन्तम् कर्णद्वन्द्वे कनकरचिते कुण्डले धारयन्तम् सत्कौपीनं कपिवरवृतं कामरूपं कपीन्द्रम् पुत्रं वायोरिन सुतसखं वज्रदेहं वरेण्यम् मूलमन्त्रः ॐ ऐं ह्रीं श्रीं हनुमते रामदूताय लङ्काविध्वंसनाय अञ्जनागर्भसम्भूताय शाहिनी डागिनी विध्वंसनाय किल किल भूभूकारिणे विभीषणाय हनुमद्देवाय ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं पट् स्वाहा ॐ ऐं ह्रीं श्रीं हनुमते रामदूताय लङ्काविध्वंसनाय अञ्जनागर्भसम्भूताय शाहिनी डागिनी विध्वंसनाय किल किल भूभूकारिणे विभीषणाय हनुमद्देवाय ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं पट् स्वाहा ॐ ऐं ह्रीं श्रीं हनुमते रामदूताय लङ्काविध्वंसनाय अञ्जनागर्भसम्भूताय शाहिनी डागिनी विध्वंसनाय किल किल भूभूकारिणे विभीषणाय हनुमद्देवाय ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं पट् स्वाहा हयग्रीवमन्त्रः ॐ अस्य श्रीहयग्रीवमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः श्रीहयग्रीवः परमात्मा देवता अकारं बीजं यकारं शक्तिः ग्रीवकीलकम् श्रीहयग्रीवप्रसादसिद्ध्यर्थे जपे विनियोगः ध्यानम् ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे मूलमन्त्रः उद्गीतप्रणवोद्गीत सर्ववागीश्वरेश्वर सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय 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 उद्गीतप्रणवोद्गीत सर्ववागीश्वरेश्वर सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय।